श्रीगणेशाय नमः। अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिकऋषिः श्रीसीतारामचन्द्रो देवता अनुष्टुप् छन्दः सीताशक्तिः श्रीमद्हनुमानकीलकम् श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः। अथ ध्यानम्। ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नं वामाकारूढसीता मुखकमलमिलल्लोचनं नीरदाभं नानालङ्कारदीप्तं दधतमुरुजटा मण्डनं रामचन्द्रम् इति ध्यानम्। चरितं रघुनाथस्य शतकोटिप्रविस्तरम् एकैकम् अक्षरं पुंसां महापातकनाशनम्। ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनं जानकी लक्ष्मणोपेतं जटामुकुटमण्डितम् सासितूर्ण धनुर्बाणं पाणिं नक्तं चरान्तकं स्वलीलया जगत्प्रातुं आविर्भूतं अजं विभुं। रामरक्षां पठे प्राज्ञः पापग्नीं सर्वकामदां शिरो मे राघव पातु भालं दशरथात्मजः। कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुति घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः। जिह्वां विद्यानिधि पातु कण्ठं भरतवन्दितः स्कन्धौ दिव्यायुध पातु भुजौ भग्नीशकामुकः। करौ सीतापतिः पातु हृदयं जामदग्न्यजित् मध्यं पातु हरध्वंसी नाभिं जाम्बवदाश्रयः। सुग्रीवेशः कटी पातु सखिनी हनुमत्प्रभुः। पुरुरघुत्तमः पातु रक्षकुलविनाशकृत् जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः। पादौ विभीषण श्रीदः पातु रामोऽखिलं वपुः। पीतां राम बलोपेतां रक्षां यः सुकृती पठे सचिरायुः सुखी पुत्री विजयी विनयी भवे। पातालभूतलव्योम चारिणश्छद्मचारिणः न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः। रामे लिप्यते पापै भुक्तिं मुक्तिं च विन्दति जगच्चैत्रैकमन्त्रेण रामनाम्ना विरक्षितं यः कण्ठे धारयेत् तस्य करस्ताः सर्वसिद्धयः वज्रपञ्जरनामेदं यो रामकवचं स्मरे अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् आदिष्टवान् यथा स्वप्ने राम रक्षामि मां हरः तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः राम श्रीमान् सनः प्रभुः तरुणारूपसम्पन्नौ सुकुमारमहाबलौ पुण्डरीकविशालाक्षौ क्षीरकृष्णाजिनाम्बरौ फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् रक्षकुलनिहन्तारौ त्रायेतां नो रघुत्तमौ आत्तस्सच्च धनुषा विशुस्पृशा वक्षया शुभनिशम्बसङ्गिनौ रक्षणाय मम रामलक्ष्मणा अग्रतः पथि सदैव गच्छतां सन्नद्ध कवची खड्गी चापबाणधरो युवा गच्छन् मनोरथोऽस्माकं राम पातु स लक्ष्मणः रामो दाशरथि शूरो लक्ष्मणानुचरो बलि काकुत्स्थ पुरुष पूर्णः कौसल्येयो रघुत्तमः वेदान्तवेद्यो यज्ञेशः पुराण पुरुषोत्तमः जानकी वल्लभ श्रीमा अप्रमेय पराक्रमः इत्येतान् जपन् नित्यं मद्भक्तश्रद्धयान्वितः अश्वमेधाधिकम् प्राप्नोति न संशयः रामं दूर्वादलश्यामं पद्माक्षं पीतवाससं स्तुवन्ति नाम ते संसारिणो नरः। रामं लक्ष्मणं पूर्वजं रघुवरं सीतापतिं सुन्दरम् काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकं राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं वंदे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिं रामाय रामभद्राय रामचंद्राय वेधसे रघुनाथाय पतये नमः। श्री राम राम रघुनंदन राम राम श्री राम राम भरताग्रज राम राम श्री राम राम रणकर्कश राम राम श्री राम राम शरणं भव राम राम श्री रामचंद्र चरणं मनसा स्मरामि श्री रामचंद्र चरणं वचसा गृणामि श्री रामचंद्र चरणं शिरसा नमामि श्री रामचंद्र चरणं शरणं प्रपद्ये। माता रामो मत्पिता रामचंद्रः स्वामी रामो मत्सखा रामचंद्रः सर्वस्वं मे रामचंद्रो दयालु नान्यं जाने नैव जाने न जाने। दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनं लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथं शरणं प्रपद्ये। मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये। पूजन्तं राम रामेति मधुरं मधुराक्षरम् आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् आपदामपहर्तारं दातारं सर्वसंपदा लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्। भवबीजानाम् अर्जनं सुखसंपदां तर्जनं यमदूतानां राम रामेति गर्जनम् रामो राजमणि सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचम् रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलय सदा भवतु मे भो राम मामुद्धर राम रामेति रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं रामनाम वरानने इति श्री बुधकौशिक विरचितं श्रीराम रक्षास्तोत्रं संपूर्णं श्री सीतारामचंद्रार्पणमस्तु श्रीराम श्रीराम श्रीराम।